अथ तृतीयोऽध्यायः शुभेन कर्मणा स्वर्गं निरयं च विकर्मणा मिथ्याज्ञानेन च तमो ज्ञानेनैव परं पदं याति तस्माद्विरक्तः सन् ज्ञानमेव समाश्रयेत् सर्वावस्थाप्रेरकश्च सर्वरूपेष्वभेदवान् सर्वदेशेषु कालेषु स एकः परमेश्वरः तद्भक्तितारतम्येन तारतम्यं विमुक्तिगम् सच्चिदानन्द आत्मेति मानुषैस्तु सुरेश्वरैः यथाक्रमं बहुगुणैर्ब्रह्मणात्वखिलैर्गुणैः उपास्यः सर्ववेदैश्च सर्वैरपि यथा बलम् ज्ञेयो विष्णुर्विशेषस्तु ज्ञाने स्यादुत्तरोत्तरम् सर्वेऽपि पुरुषार्थास्युर्ज्ञानादेव न संशयः न लिप्यते ज्ञानवांश्च सर्वदोषैरपि क्वचित् गुणदोषैः सुखस्यापि वृद्धिः ह्रासो विमुक्तिगौ नृणां सुराणां मुक्तौ तु सुखं क्लृप्तं यथाक्रमम् इति ब्रह्मसूत्राणुभाष्ये तृतीयोऽध्यायः।